नमोस्तु सर्वलोकानां जननीमब्धिसंभवा श्रीयं उन्निद्रपदमाक्षीं विष्णुवक्षःस्थलस्थितां त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी संध्यारात्रिः प्रभामूर्तिर् मेधा श्रद्धा सरस्वती यज्ञविद्या महाविद्या ग्रह्यविद्या च शोभने आत्मविद्या च देवित्वं विमुक्ति फलदायिनी आन्वीक्षिकी त्रयी वार्ता दण्डनीति त्वमेव च सौम्या सौम्य जगत रूपेस त्वयि तद्देवि पूरितम् कात्वदन्या त्वामृते देवि सर्वयज्ञमयं वपुः अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः त्वया देवी परित्यक्तं सकलं भुवनत्रयं विनष्टप्रायमभवत् त्वय्येदानीं समेधितं दारापुत्रास्तथागारं सुहृदधान्यं धनादिकं भवत्येतन्महाभागे नित्यं त्वत्वीक्षणान्निर्णाम् शरीरारोग्यमैश्वर्यं परिपक्षक्षयासुखं देवी त्वत्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम्।